नमस्सर्वेभ्यः। अद्य छन्दोवर्गस्य नवमः पाठः। अस्मिन् पाठे वयं शालिनी वृत्तस्य लक्षणम् उदाहरणानि च पश्यामः। शालिन्याः लक्षणं भवति शालिन्युक्तां तौ तदौ गोब्धिलोकैः। शालिन्युक्तां तौ तदौ गोब्धिलोकैः इति शालिन्याः लक्षणं भवति। कीदृशं वृत्तं भवति? शा गुरुः, लि इति ह्रस्वः किन्तु अग्रे न्यू इति संयोगः अस्ति अतः गुरुः, उ इत्यपि ह्रस्वः अग्रे संयोगः अस्ति क्त इति अतः गुरुः, क्ता गुरुः, तौ गुरुः, त लघुः, गौ गो धि लोकैः अतः अधिकतया गुरवः एव सन्ति पादे। कति अक्षराणि सन्ति? त्रीणि षट् नव एकादश। शालिन्यामपि प्रतिपादम् एकादश अक्षराणि। कः गणः? सर्वगुरुः मगणः, मनौ तु गुरुलाघवम्। अन्त्यलघुः यरत, यरताय अन्तिलाघवं तगणः। पुनः अन्त्यलघुः तगणः, गुरुः गुरुः। शालिन्युक्ता, शालिनी उक्ता। का शालिनी? मृतौ, मृतौ, मतौ मगण तगणौ। तगौ तगणः गुरुः, गः गुरुः। सो मगण तगण तगण गुरु गुरु अस्ति चेत् शालिनी। अन्ते किमस्ति? अब्धिलोकैः इति किमपि अस्ति। मया पूर्वम् उक्तमासीत् वृत्तस्य लक्षणे किमुच्यते? एकं तु गणाः, के गणाः भवन्ति, गणमतीत्य के वर्णाः इति उच्यन्ते। अन्यच्च यतिः यत्र अस्ति तदपि उच्यते लक्षणे। एतावत्पर्यन्तं वयं कुत्रापि यतिं न दृष्टवन्तः। अस्मिन् वृत्ते यतिनियमः अस्ति। यतिः कथम् उच्यते? यतिः इत्युक्ते वयं ज्ञातवन्तः विरामः, एकः लघुविरामः पादस्य मध्ये उच्यते, तस्य यतिः इति नाम। कुत्र, कस्मात् वर्णाद् अनन्तरं यतिः इति कथनीयम्। यथा चतुर्थवर्णानन्तरं यतिः, पञ्चमवर्णानन्तरं यतिः। सा संख्या या अस्ति तस्याः निर्देशार्थं साक्षात् संख्या नोच्यते लक्षणे, एकं द्वे त्रीणि इत्यादि। तर्हि किमुच्यते इति चेत् भूतसंख्या इति किमपि अस्ति। अस्माकं भारतीयगणितशास्त्रे प्रसिद्धमिदं भूतसंख्या। प्रसिद्धानां पदार्थानां संख्याम् आश्रित्य तद्वारा संख्यायाः बोधः क्रियते। यथा वेदाः इति वदन्ति, वेदाः तु चत्वारः वेदाः इति सर्वे जानीमः। अतः चत्वारः इति संख्यां बोधयितुं वेदः इति शब्दस्य प्रयोगः क्रियते। एवमेव इन्द्रियाणि, कति इन्द्रियाणि? पञ्च इन्द्रियाणि। अथवा भूतानि, कति भूतानि? पञ्चभूतानि। एवं पञ्च इति संख्यां बोधयितुं भूत इति शब्दस्य प्रयोगः कर्तुं शक्यते। एतादृशं यत्र क्रियते तस्य भूतसंख्या इति नाम। अत्रापि पदद्वयमस्ति, एकमस्ति अब्धिः, अपरमस्ति लोकः। अब्धिः इत्युक्ते समुद्रः इत्यर्थः। चतुस्समुद्राः इति प्रसिद्धिः अस्ति पुराणेषु, अतः अब्धिः इत्यस्य चत्वारः इत्यर्थः। अनन्तरमस्ति लोकाः, सप्तलोकाः इत्यपि प्रसिद्धमस्ति, अतः अत्र लोकशब्दस्य सप्त इत्यर्थः। तर्हि यतिः कुत्र भवति? चतुर्थाक्षरानन्तरं यतिः भवति, तदनन्तरं सप्त अक्षराणि, एकं द्वे त्रीणि चत्वारि, एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त पादस्य अन्ते. सो चतुर्थ अक्षरानन्तरं पादस्य अन्ते च यतिः भवति इति शालिनीव्रतस्य नियमः. अत एव शालिन्युक्ता तौतगौ गोब्धिलोकैः, शालिन्युक्ता इति चतुर्थाक्षरानन्तरं विरामः अस्ति. उदाहरणं पश्यामः. माता रामो मत्पिता रामचन्द्रः, स्वामी रामो मत्सखा राघवेशः, सर्वस्वं मे रामचन्द्रो दयालुः, नान्यं दैवं नैव जाने न जाने. स्वत्र माता रामो मत्पिता रामचन्द्रः. सो मगणः अस्ति, तगणः अन्त्यलघुः, पुनः तगणः, गुरुः गुरुः. शालिन्युक्ता मृतौ तगौ गः अब्धिलोकैः यतिः अपि अस्ति. माता रामो चतुर्थाक्षरानन्तरं यतिः, मत्पिता रामचन्द्रः, स्वामी रामो मत्सखा राघवेशः, सर्वस्वं मे रामचन्द्रो दयालुः, नान्यं दैवं नैव जाने न जाने. पादस्य अन्ते अपि अस्ति. गोब्धिलोकैः, गः नाम गुरुः, अब्धिलोकैः, अब्धिः नाम चत्वारि, लोक नाम सप्त. एवं यतिनियमः अपि शालिनीवृत्ते अस्ति. अन्यः कश्चित् श्लोकः. एको देवः केशवो वा शिवो वा, एकं मित्रं भूपतिर्वा यतिर्वा, एको वासः पत्तने वा वने वा, एका नारी सुन्दरी वादरी वा. अत्रापि समानं वृत्तस्य लक्षणं तु अस्त्येव. एको देवः केशवो वा शिवो वा. सो मगणः, तगणः, तगणः, गुरुद्वयं, चतुर्थाक्षरानन्तरं यतिः. एको देवः केशवो वा शिवो वा, एकं मित्रं भूपतिर्वा यतिर्वा, एको वासः पत्तने वा वने वा, एका नारी सुन्दरी वादरी वा. नीतिशतकस्य अयं श्लोकः. अत्रापि शालिनीवृत्तं दृश्यते. सो शालिनीवृत्ते प्रतिपादम् एकादश अक्षराणि भवन्ति. म त त गणाः, अन्ते गुरुद्वयं च भवति. चतुर्थाक्षरानन्तरं पुनः तदनन्तरं सप्तमाक्षरानन्तरं यतिः भवति. लक्षणमस्ति शालिन्युक्ता मृतौ तगौ गोब्धिलोकैः. अभ्यासपत्रे दत्तानां वाक्यानां प्रस्तारं विलिख्य शालिनीवृत्तस्य अभ्यासं कुर्वन्तु.